एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति महिलाभ्यः आर्थिक सामाजिक राजनीतिक सांस्कृतिक अवसरेषु केनापि भेदभावेन विना समानावसरः प्रदातव्यः। द्वादशाधिक शततमस्य अन्तर्राष्ट्रिय नारी दिवसस्य अवसरे गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा महिलानां विरूद्धे कथमिदमपि विभेदम् सामाजिक भेदभावं च न कर्तुम् अनुरुन्धानः अभासत। महिला सशक्तिकरणं सर्वेषां संयुक्त सम्बन्धस्य विषयो वर्तते। प्रधानमन्त्री देउवा राज्यस्य सर्वेष् निकायेष् महिलानां समान सहभागिता आवश्यकी अस्तीति चर्चयन् अवोचत्। पश्चात्तन समये राजनीतिक क्षेत्रे महिलानां उल्लेख्य सहभागिता अनुकूल विषयो वर्तते। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री उमा रेग्मी अधुनापि समाजे महिला हिंसा व्याप्ता स्थिति तर्कयन्ती अकथयत् इमाम् उन्मूलयितुम् पुरूषाणामपि मानसिकतायाः परिवर्तनम् आवश्यकम् अस्ति। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषाल अवासत महिलाधिकार सम्बद्ध विधिना व्यवस्थितां सुरक्षां पूर्णता क्रियान्वय अपर्याप्तायाः व्यवस्थायाः वर्धनाय रचनात्मकम् आन्दोलनम् आवश्यकं वर्तते। कार्यक्रमे नगरीय विकास मन्त्री रामकुमारी झाँक्री अतर्कयत् संविधानेन मौलिकाधिकारस्य रूपेण महिलाधिकारः संस्थापितः सन्नपि एतस्य प्रभावकारिणः क्रियान्वयनस्य अभावेन अधुनापि महिला हिंसा व्याप्ता वर्तते। प्रधानमन्त्री शेरबहादुर देउवा निगदति जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणात्मिका नीतिः सर्वकारस्य प्राथमिकतायं वर्तते। अन्तर्राष्ट्रिय नारी दिवसस्य अवसरे साथसाथै इत्यभिधेयाया संस्थायाः मुख्यायोजनायां ह्यः काष्ठमण्डपे सम्पन्ने कार्यक्रमे प्रधानमन्त्री देउवा जलवायोः परिवर्तनेन विपदा सर्जनस्य अवस्थायां सर्वकारेण जलवायोः परिवर्तनस्य प्रभावस्य नियन्त्रणाय विभिन्नाः कार्यक्रमाः अग्रेसारिताः सन्तीति प्रावोचत्। अत्रान्तरे साथसाथै इति संस्थायाः आयोजनया वन वातावरण मन्त्रालयस्य विभिन्नानाम् अन्तर्राष्ट्रिय संस्थानां च सहयोगेन च विश्वस्य उच्चतमस्य सगरमाथा हिमशिखरस्य काला पत्थर क्षेत्रात् जलवायु परिवर्तनस्य प्रभावस्य विषये विश्वस्य ध्यानम् आकर्षयितुं दशसूत्रीयं घोषणापत्रं प्रकाशितं वर्तते। ओमन युनाइटेड फर क्लाइमेट जस्टिस इत्याख्येन जलवायोः न्यायाय मैलैक्यबद्धता मूल समाघोषेण समाजस्य विभिन्नानां क्षेत्राणां प्रतिष्ठितानां चत्वारिंशतो महिलानां समूहेन काष्ठमण्डपात् त्रयोदश दिवसीयां पदयात्रां प्रारभ्य कालापत्थर क्षेत्रे विशेष कार्यक्रमम् आयोज्य च घोषणापत्रमिदं प्रकाशितमिति साथसाथै संस्थायाः अध्यक्षा प्रजिता कार्की अज्ञापयत्। नेकपा एमाले दलस्य अध्यक्षा केपी शर्मा ओली वदति समानतायाः चेतनायाः राजनीते कस्तरे महिला सहभागितायाश्च दृष्ट्या नेकपा एमाले दलम् सर्वाधिकम् अग्रगामी वर्तते। अन्तर्राष्ट्रिय नारी दिवसस्य अवसरे अखिल नेपाल महिला संघेन ह्य आयोजिते कार्यक्रमे एमाले दलाध्यक्ष ओली न्यायाय समानतायै च महिलाभि विहितम् योगदानम् स्मारयन् अकथयत् महिला सहभागितायै एमाले दलम् प्रतिबद्धम् वर्तते। असौ प्रत्येकम् व्यक्तेः प्रथम शिक्षिका माता स्थिति चर्चयन् उक्तवान् शारीरिक रूपेण पुरूषवत् समानाः न सत्योऽपि बौद्धिक रूपेण महिलाश्च पुरूषेभ्य अग्रग्रामीण्यः सन्ति। असौ निर्वाचनायोगेन स्थानीय स्तराणां निर्वाचनाय हरितरंगस्य मतपत्रं निर्मीयमाणम् अस्तीति कृत्वा तत्र आपत्तिं ज्ञापितवान्। अध्यक्ष ओली अवोचत् निर्वाचनायोगेन एतत् निर्णीतम् अस्ति चेत् तद् शोधयितव्यम्। राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमलसिन्हा महिलानां पक्षे संविधाने विधौ च उल्लिखितान् अधिकारान् प्रयोक्तुं तदनुसारेणैव क्षमता विकसनीयेति बलं ददाति। द्वादशाधिक शततमस्य अन्तर्राष्ट्रिय नारी दिवसस्य अवसरे पर्वत जनपदे पूर्वेद्यु आयोजिते कार्यक्रमे अध्यक्ष तिमलसिन्हा अगदत् अधिकारात् आरक्षणाच्च उपरि उत्थाय महिलाभि पुरूषै सह प्रतिस्पर्धनस्य क्षमता विकसनीया। राजनीतिक दलानां नेतृभिः महिलाधिकारणं क्षेत्रे क्रियाशील व्यक्तिभिश्च कार्यकारी भूमिकायां महिलानां अर्थपूर्ण सहभागितायै एकता संघर्षयोः विकल्पो नास्तीति बलं प्रदत्तं वर्तते। अन्तर्राष्ट्रिय नारी दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे इमाः व्यक्तय पितृसत्तात्मक चिन्तनस्य पराजयाय एकीभूय संलग्नाः भवितुं बलं प्रादुः। कार्यक्रमे भौतिक पूर्वाधार यातायात मन्त्री रेणुकुमारी यादवः पार्टीका समावेशी प्रतिनिधित्वस्य रूपेण महिला सहभागिता वर्धिता सत्यपि सांविधानिक सुनिश्चितताया वैश्च सहभागिताया अप्रवर्धनम यावत् महिला सशक्तिकरणम् न वर्धिष्यते इति तर्कितवती। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर आजु राणा देउवा अब्रवीत राजनीतौ महिलानाम् सहभागिताया वर्धनाय केवलम् पुरूष राजनीतिक ज्ञानम एव आधारम न मत्वा महिला नेतृभिः शक्तिशालिनी भूमिका निर्वूढव्या। कार्यक्रमे नेकपा एमाले दलस्य उपाध्यक्ष अष्टलक्ष्मी साक्य, कांग्रेस दलस्य नेत्री पुष्पा भूषाल, एमाले दलस्य नेत्री डाक्टर बिन्दा पाण्डे च विचारान उपस्थापयन्। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा स्थानीय स्तराणाम आगामी निर्वाचने दलाय बहुमतम दापयितुम नेतृन कार्यकर्तृञ्च निर्दिशति। सानेपावर्तिनी दलस्य कार्यालय ह्या उपविष्टे शीर्ष नेतृणाम केन्द्रीय सदस्यानाञ्च उपवेशे सभापति देउवा ईषद मतभेदान विस्मृत्य दलाय बहुमतम दापयितुम अनुरुन्धान कांग्रेस दलस्य पक्षे वातावरणम् स्रष्टुम् बलम् प्रादात्। सभापतिः देउवा दलेन संचालयिष्यमाणे निर्वाचन प्रचाराभियाने वर्तमान सत्ता गठबन्धनस्य विरोधम् न कर्तुमपि अन्वरुणदिति वेशे सहभागी केन्द्रीय सदस्य नैन सिंह महर अज्ञापयत। कांग्रेस दलेन आसन्न निर्वाचनम लक्ष्यीकृत्य अस्यैव फाल्गुनस्य 29 दिवसात् एकमासावधि आराष्टम निर्वाचन प्रचाराभियानम संचालयितुम निर्णीतमिति नेता महर अज्ञापयत। गृहमन्त्री बालकृष्ण खाँड कथयति देशस्य आर्थिक समृद्धये एमसीसी परियोजना महत्वपूर्ण सिद्ध्यति। रूपन्देही जनपदस्य तिलोत्तमा नगरपालिकायाः मणिग्रामवर्तिनः शान्ति नमुना माध्यमिक विद्यालयस्य वार्षिकोत्सव कार्यक्रमे ह्यो गृहमन्त्री खाँड जलस्रोतः सदुपयुज्य ततः उत्पादितायाः विद्युतः व्यापारेण समग्रार्थिक क्षेत्रम् चलायमानम् विधातुम् सहयोगो विधास्यते इति विश्वासम् व्यक्तवान्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन अधुनावधि द्यूतशालाभ्य 87 कोट्यः रूप्यकाणि राजस्वभित्तम् संकलितम् अस्ति। पर्यटन मन्त्रिणः प्रेमबहादुर आलेभिदस्य निर्देशनस्य पश्चात् द्यूतशालायाः संचालकेभ्यः राजस्वार्पणस्य क्रमः वर्धितोऽस्ति। मन्त्रिणा आलेभिदेन द्यूतशाला संचालनस्य राजस्ववित्तस्य अप्रदायकानाम् द्यूतशालानाम् द्यूतशाला संचालनानुमतिपत्रस्य निरस्तीकरणाय प्रत्यादेश प्रदानानन्तरम् द्यूतशाला संचालकैः राजस्ववित्तार्पणस्य क्रमः वर्धितः। अधुनावधि 17 द्यूतशालाभिः राजस्वम् अर्पितम् अस्तीति पर्यटन विभागेन प्रकाशितायम् विज्ञप्तौ उल्लिखितमस्ति।